सलम हिमजले स्नानं च दिव्यांबरम् नानारत्न विभूषितं मृगमदामोदाङ्कितं चन्दनम् जातिचम्पकबिल्वपत्ररचितम् पुष्पं च धूपं तथा दीपं देवदयानिधे पशुपते हृत्कल्पितं गृह्यताम् सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसम् भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् शाकानां यतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलम् ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलम् वीणाभेरिमृदङ्गकोहलकला गीतं च नृत्यं तथा साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा एतत्समस्तं मया संकल्पेन समर्पितं तव विभो पूजां ग्रहाण प्रभो आत्मा त्वं गिरिजामते सहचराः प्राणाः शरीरं ग्रहम् पूजाते विषयोपभोगरचना निद्रा समाधिस्थितिः सञ्चारः पतियोः प्रदक्षिणविधि स्तोत्राणि सर्वागिरो कर्म करोमि तत् अखिलम् शम्भो तवाराधनम् करचरणकृतं वा कायजं कर्मजं वा श्रवणनयनजं विहितमविहितं वा सर्वमेतच्छमस्व जय जय